ॐ सहनावतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः सर्वेभ्यो नमः
धन्यवादः भगिनि सर्वेषां स्वागतम् अस्मिन् वर्गे सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगः तत्र वयं लङ्लकारे इति मन्ये लङ्लकारे रूपं कथं भवति इति तत्र दृष्टवन्तः इति मन्ये तत्र पुटसङ्ख्या अस्ति
द्वाचत्वारिंशदधिकशतं
हा अस्तु तत्रैव स्मः अस्तु तत्र कथां पठितवन्तः
आमां महोदय
हा अतः तत्र एकवारं तत्र रूपस्य पुनस्मरणं कुर्मः तर्हि तत्र तत्र किं भवति इति तत्र वेदा भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी हा अतः तत्र सोपानद्वयं नमस्कारः भगिनी तत्र पुटसङ्ख्या अस्ति 142 अस्तु तर्हि तत्र सोपानद्वयम् इति कुर्मः प्रथमतया तत्र आत्मनेपदीधातूनां तत्र लङ्लकाररूपं कथं भवति इति तत्र नरेश महोदय वदति वा तत्र कम्पते स्वीकृत्य
कम्पते तत् आत्मनेपदी अस्ति तस्य कर्मणि रूपं कम्प्यते भवति
न इदानीं केवलं तत्र कम्पते इति तत्र केवलं तत्र लङ्लकारस्य रूपं वदतु आत्मनेपदी धातूनां लङ्लकाररूपं भवति इति
लङ्लकार अकम्पत
नवरूपाणि वदतु
अकम्पत अकम्पेताम् अकम्पन्त अकम्पथाः अकम्पेथाम् अकम्पध्वम् अकम्पे अकम्पावहि अकम्पामहि
हा इति अस्ति समीचीनं हा अस्तु तत्र पुनः तत्र क्षमभगिनी तत्र वर्धते इति तस्य वदतु एकवारं केवलं कर्तृ एव लङ्लकररूपम्
वर्धते वा अवर्धता अवर्धेताम् अवर्धन्ता अवर्धथाः अवर्धेताम् अवर्धध्वम् अवर्धे अवर्धावहि अवर्धामहि
हा समीचीनम् अस्तु हर्षदा भगिनी तत्र शोभते
अशोभत अशोभेताम् अशोभन्त अशोभथाः अशोभेथाम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि
हा इति समीचीनम् अस्तु वेदा भगिनी तत्र वक्तुं शक्नोति वा अद्य
प्रयत्नं करोमि महोदय
अस्तु तर्हि तत्र सम्पते वर्तते अस्तु तत्र किं स्वीकरोति भवती तत्र आत्मनेपदी दातु
भजते
अस्तु भजते समीचीनं धन्यवादः भगिनि हा अस्तु वेदा भगिनि तर्हि भजते
अभजत अभजेताम् अभजन्त अभजथाः अभजेताम् अभजध्वम् अभजे अभजावहि अभजामहि
हा इति अस्ति अस्तु समीचीनम् अतः तत्र इदानीं तत्र प्रथमसोपानं नाम तत्र लङ्लकारस्य आत्मनिपदिधातूनां लङ्लकाररूपं कथं भवति इति ज्ञातवन्तः इदानीं तत्र अन्यसोपानं यदस्ति तत्तु वयं जानीमः एव नाम तत्र धातुः अस्ति चेत् तत्र यकारः योजनेन तत्र कर्मणि रूपं कथं प्राप्यते इति तत्तु वयं जानीमः अस्तु अतः तर्हि तत्र रूपाणि इदानीं तत्र गच्छति इति अस्ति तस्य कर्मणि लङ्लकाररूपाणि नवरूपाणि नरेश महोदय गच्छति इति तत्र सोपानम् अपि वदतु महोदय, तत्र घम् इति धातुः
आम् गच्छति, गम् धातुः अस्ति
प्रथमत्वा लट् लकारः इति तादृशं वदतु।
कर्मणि लट् लकारे यकार आगच्छति, गम्यते भवति,
समीचीनं
गम्यते। अनन्तरं लङ्लकार लङ्लकार अगम्यत भवति।
इदानीं नवरूपाणि
अगम्यत, अगम्येताम्, अगम्यन्त, अगम्यथाः, अगम्येथाम्, अगम्यध्वम्, अगम्ये, अगम्यावहि, अगम्यामहि।
समीचीनम्, अस्तु। शोभा भगिनी, तर्हि तत्र करोति इति
किं महोदय?
करोति,
करोति, कुरुते इति आत्मनेपदी, तत्र भिन्नानि सन्ति।
तत्र करोति इति परस्मैपदी,
आम् आत्मनेपदी वदनीयं वा महोदय?
लट् इति प्रथमतया वदतु भगिनि।
कर्मणि
कर्मणि लट् इति, कर्मणि लट् प्रथमतया वक्तव्यं खलु?
क्रियते,
हा समीचीनं।
अपि च
इदानीं तत्र लङ्लकारे नवरूपाणि
अक्रियत, अक्रियेताम्, अक्रियन्त, अक्रियथाः, अक्रियेथाम्, अक्रियध्वम्, अक्रिये, अक्रिया वहि, अक्रियामहि
इति अस्ति। समीचीनम्, अस्तु। अग्रे हर्षदा भगिनी, इदानीं तत्र पठति इति
अपठ्यत, अपठ्येताम्,
किन्तु सोपानानि वदतु भगिनी, तत्र पठति इति सोपानं
पठति, पठति अस्ति कर्मणि मध्ये, पठ्येत् भवेत्,
पठ्यते इति कर्मणि,
सोरि पठ्यते, पठ्यते कर्मणि लट्, अनन्तरं कर्मणि लङ्रूपाणि अपठ्यत, अपठ्येताम्, अपठ्यन्त, पठ्यन्त, अपठ्यथाः, अपठ्येथाम्, अपठ्यध्वम्, अपठ्ये, अपठ्यावहि, अपठ्यामहि।
अस्तु समीचीनम्। इदानीं वेदा भगिनी, तत्र लिखति,
लिखति लट्लकारे प्रथमेपतिरूपमस्ति लिखति, तस्य आत्मनेपदीरूपमस्ति लिखते, परन्तु कर्मणि प्रयोगे लिख्यते, लिख्यते लङ्लकारस्य लङ्लकारे रूपमस्ति अलिख्यत, अलिख्येताम्, अलिख्यन्त, अलिखेथाः, नो अलिख्यताः, अलिखेथाम्, अलिख्यध्वम्, अलिख्ये, अलिख्यावहि, अलिख्यामहि।
हा समीचीनम्, हा अस्तु। इदानीं नरेश महोदय, तत्र पश्यति इति,
पश्यति तत्तु कर्तरिरूपं पश्यति अस्ति परस्मैपदी, कर्मणि रूपं लट्लकारे दृश्यते, दृश्यते लङ्लकारे अदृश्यत,
अदृश्यत,
अदृश्यत, अदृश्येताम्, अदृश्यन्त, अदृश्यथाः, अदृश्येथाम्, अदृश्यध्वम्, अदृश्ये, अदृश्यावहि, अदृश्यामहि।
हा इति समीचीनम्, अस्तु। अग्रे तत्र शोभा भगिनी, हसति,
हसति, हस्यते इति भवति आत्मने कर्मणि प्रयोगे, अपि च अहस्यत इति कर्मणि लङ्, अहस्यत, अहस्येताम्, अहस्यन्त, अहस्यथाः, अहस्येथाम्, अहस्यध्वम्, अहस्ये, अहस्यावहि, अहस्यामहि।
हा समीचीनम्, अस्तु। इदानीं हर्षदा भगिनी, तत्र वर्तते,
वर्तते कर्मणि लट्लकार भवति, वर्त्यते, लङ् भवति अवर्त्यतो अवर्त्यताम् अवर्त्यन्तो अवर्त्यथा
भगिनि 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 तत्र वर्तते इति तत्र हा तत्र धातुः कः वर्तते इति
वर्त् वृत्
हा
वृत् वृत्
हा अतः तत्र कर्मणि रूपं किं भवति
वृत्यते आं महोदय अद्य अहं चायं न पीतवती वृत्यते वृत्यते अवृत्यत अवृत्यताम्
अवृत्यते भवति
किं भगिनि
वृ इति ऋकारान्तधातुः
आमां
व्रियते इति भवति वा
न न वृत्यते
वृत्यते भवति न वृत् अधिकय अधिकतेन वृत् अधिकय अधिकते भवति न गम् अधिकय अधिकते
तदेव इत्यस्य कृते चिन्तितवती क्षमताम्
अवृत्यत अवृत्यताम् अवृत्यन्त अवृत्यथाः अवृत्येथाम् अवृत्यध्वम् अवृत्ये अवृत्यावहि अवृत्यामहि
हा इति अस्ति समीचीनं हा अस्तु वेदा भगिनी इदानीं तत्र अपतति
पतति पतति तस्य रूपं लङ्लकारे कर्मणि प्रयोगे पतति अपत्यत पत्यत पतति पद्धातु
लट्लकारे रूपं किम् अस्ति
लट्लकारे कर्मणि प्रयोगे अपत्य पत्यते पत्येते पत्यन्
हा पत्यते इति समीचीनं समीचीनं भगिनि हा तदनन्तरं
लङ्लकारे अपत्यत अपत्येताम् अपत्यन्त अपत्यथाः अपत्येथाम् अपत्यध्वम् अपत्ये अपत्यावहि अपत्यामहि
हा इति अस्ति समीचीनम् अतः तत्र सर्वेषां कृते तत्र पुनस्मरणं जातम् इति मन्ये अपि तत्र निर्माणं कथं भवति इति ज्ञानमपि सर्वैः प्राप्तमिति मन्ये अस्तु इदानीं तत्र अग्रे सरामः तत्र यानि वाक्यानि सन्ति पेज् 142 मध्ये तानि पठित तानि वयं पठितवन्तः वा अथवा न एकवारं तत्र कथं तु पठितवन्तः अतः तत्र वाक्यानि पेज् 142 मध्ये यदि
पठितवन्तः महोदय
अस्तु हा किन्तु तत्र भावे इति न पठितवन्तः
पठितवन्तः
अस्तु 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 तर्हि तत्र हा किन्तु अस्तु एकवारम् एतदपि पठामः भगिनि तत्र कर्मणि लङ् अपि एकवारं पठामः तर्हि तत्र वेदा भगिनी आरम्भं करोति वा
कुत्र महोदय अत्र पत्र प्रदत्तानि वाक्यानि सावधानतया पठत
हा तत्र एव तत्र एव
पुत्रेण वनम् अगम्यत
हा अर्थः कः
पुत्रेण वनम् अगम्यत
कर्तृरूपं वदतु
कर्तृरूपं अगम्यत कर्मणि रूपं कर्तृरूपं पुत्रेण वनं गच्छति न न लङ्लकाररूपमस्ति पुत्रेण वनं अगम्यत्
अस्तु तर्हि तत्र अस्तु भगिनि तत्र किं कुर्मः पुत्रेण वनम् अगम्यत इति तत्र कर्तृपदं किमस्ति कर्मपदं किमस्ति इति सर्वं
पुत्रेण पुत्रः वनं वनमेव तिष्ठति पुत्रः वनम् अगम्यत्
हा तत्र
पुत्र अगम्यत् एकवचनम्
हा समीचीनं तत्र सर्वं समीचीनं केवलं तत्र घं धातोः लट् लकारे कर्तृरूपं किम् अस्ति
ओ गच्छत्
हा अतः
अगच्छत्
हा इदानीं वाक्यं
वदतु वनम् अगच्छत्
हा इति समीचीनम् अस्तु पुत्रेण वनम् अगम्यत पुत्रः वनम् अगच्छत् समीचीनं समीचीनम् अस्तु
तेन पठामि
वा किमपि करोतु हा तेन
लोध्रत्वजः लोध्रत्वचः अकृत्यन्त लोध्रत्वचः अकृत्यन्त बहुवचनरूपमस्ति तेन लोध्रत्वचः लोध्रत्वचः बहुवचनं वा महोदय लोध्रत्व
तथैव अस्ति
किमर्थं न जानामि लोध्रत्वचः बहुवचनं किमर्थं ओ चौ वचः वा तेन
त्वक् त्वक् इति स्किन् इति अर्थ पदं जानाति खलु त्वक्
त्वक् शरीरं
शरीरं नास्ति स्किन् केवलं
शरीरं
स्किन्
तेन त्वचः अकृत्यन्त तस्य लट्लकाररूपं वदामि वा तस्य
कर्तृरूपं वदतु
कर्तृरूपं कर्तृरूपं तेन सह तौ ते तेन तेन ते ते
कर्तृरूपं तत्र तेन इति किं कर्तृपदं वा कर्मपदं वा
न अद्य अत्र तेन इति तृतीय एक तृतीयवचनं
तृतीय समीचीनम् अतः तत्र कर्तृपदं वा कर्मपदं वा
तत्तु कर्मपदं न कर्मपदम् एव हा कर्मपदं लोध्रत्वचः एव कर्तृपदं
न न न नाम तत्र कर्मणि प्रयोगे कर्तृपदस्य तृतीया कर्मपदस्य प्रथमा इति अस्ति खलु नियमः भगिनी भवती पूर्वस्मिन् वाक्ये पुत्रः वनम् अगच्छत् इति उक्तवती तत्र पुत्रः एव कर्तृपदं खलु हा पुत्रेण इति कर्तृपदं
तेन शब्दस्य कर्तृपदं
तेन इति कर्तृपदम् अस्ति तस्य प्रथमाविभक्तिरूपं किम् अस्ति
सः सः लोध्रत्वचः तस्य कर्मं पदं किम् अस्ति लोध्र त्वचः वचः त्वचः त्वचौ त्वच् न किम् अस्ति महोदय तस्य कर्मपदं बहुवचने लोध्रत्वचं
वा तत्र त्वक् त्वचौ त्वचः इति तत्र द्वितीयविभक्तिरूपं किम् अस्ति
त्वचः एव
त्वचः एव अस्ति वा त्वच् त्वचौ सः लोध्रत्वचः अकृत्यन्त तस्य प्रथम एकवचनरूपं तस्य रूप एकवचनरूपमस्ति अकृत्यत
तत्र कर्तितवान् इति स्वीकरोतु हा कर्तितवान्
अकर्तितवान्
तत्र तव तु चेत् प्रायशः सुलभः भवति तत्र नाम कर्तितवान्
कर्तितवान् ओके
तत्र
सः पुत्रत्वच कर्तितवान्
तत्र शोभा भगिनी तत्र वाट्सप् ग्रूप् मध्ये तत्र हलन्तरूपाणां तत्र करपत्रं प्रेषितवती खलु
कदा महोदय
भवती पूर्वं तत्र स्वरूपमध्ये भवती तत्र प्रेषितवती अतः स्थापितमस्ति तत्र वाट्सप् मध्ये
मीडिया मध्ये अस्ति
पीडिएफ् अस्ति तत्र वाचः वाचं वाचौ वाचः तथैव तत्र इति मन्ये अपि अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे
पुत्रेण न किमपि अकथ्यत पुत्रः न किमपि अकथयत्
मम पुस्तके नास्ति
हा भवत्याः पुस्तके नूतनमुद्रणम् अस्तु अग्रिम तत्र एतदपि तत्र अस्ति भगिनि तत्र हर्षदा भगिनी तत्र प्रेषितवती इति मन्ये खलु
अस्तु अहम् अन्यत् किमपि वाक्यं करोमि वा
तत्र अहं प्रेषितवान् इति मन्ये, भवती प्रेषितवती वा? न न, प्रायशः न. अस्तु.
आं महोदय, तत् तत्तु अस्ति तत्र. लेट् मी सी.
हा, किन्तु भवती पठतु भगिनि, तदनन्तरं पश्यामः, चिन्ता मास्तु.
वाक्यं पुत्रेण न किमपि अकथ्यत, पुत्रः न किमपि अकथयत्.
अकथयत्, समीचीनं. कथयति, अकथयत्, समीचीनम्. अस्तु, अग्रिमवाक्यं.
तया पुत्रः आहूयत्. तया सा पुत्रम् आह्वयत्.
आह्वयत्, समीचीनं. हा, समीचीनमस्ति. अस्तु, अग्रे शोभा भगिनी.
आं महोदय. तत्र करपत्रं, करपत्रस्य अन्वेषणं
कुर्वन्ती अस्ति वा इदानीं?
कुर्वन्ती आसम्. अस्तु, अधुना कुत्र स्मः महोदय?
तत्र मात्रा औषधम् अक्रियत इति.
अस्तु, मात्रा औषधम् अक्रियत, कर्तरिप्रयोगः माता औषधं क्रीणाति.
अक्रियत, भवती एव उक्तवती तत्र नवरूपाणि, अक्रियत, अक्रियताम्, अक्रियन्त इति भवती एव उक्तवती. धातुः कः?
ओ, अधुना तत्र कर्तरिप्रयोगस्य आवश्यकता नास्ति.
किन्तु धातुः कः?
धातुः क्रूधातुः.
हा, तर्हि लट्लकाररूपं किं भवति?
करोति.
किमर्थम्
औषधं करोति?
करोति, किन्तु भूतकाले लङ्लकारे
अकरोत्.
हा, तावदेव. माता औषधं,
माता औषधम् अकरोत्.
हा, मात्रा औषधम् अक्रियत.
अक्रियत.
अस्तु, तत्र बालैः पाठः.
महोदय, हलन्तशब्दानां रूपाणि अत्र पुस्तके अपि 170 पेज् उपरि सन्ति. 178, 179
सन्ति भगिनि, किन्तु तत्र मुद्रणदोषाणि अपि सन्ति इति कृत्वा, दोषः भवेयुः इति कृत्वा तत्र स्वरूपमहोदय तत्र एकं करपत्रं निर्मितवान. तद् वाट्सप् मध्ये अस्ति भगिनि. उपयोगः अस्ति, अत्र अपि अस्ति, तदपि यदि अस्ति चेत् लाभः.
भगिनी पुनरेकवारं प्रेषयतु.
प्रेषयामि भगिनि.
नो चेत् अहं प्रेषयामि भगिनि. तत्र अस्तु, शोभगिनी अग्रिमं करोतु. तया कथा, तया कथा अलिख्यत इति.
बालैः इति अस्ति किल,
सा तत्र हर्षिता भगिनी तादृशं वाक्यं
कृतवती वा? अस्तु,
अतः
तया कथा अलिख्यत. अत्र तया इति तृतीयविभक्तौ कर्तृपदं, कथा इति कर्मपदम्, अलिख्यत इति लङ्लकारे लिक् धातुः. तस्य कर्तरि प्रयोगः तया सा कथां, कथा कथाम् इति भवति, कथाम् अलिखत इति.
पुनः भगिनि, सा
कथाम् अलिखत. अलिखत्, क्षमताम्,
अलिखत्. ओके, इदानीं सम्यक्. अलिखत्, लिखति इति परस्मैति कृत्वा, समीचीनम्. अस्तु, इदानीं तत्र नरेश महोदय.
एताभिः नाटके अदृश्येताम्. एताभिः तत्तु बहुवचनम् अस्ति. तत्र एता
एकवचने रूपं किम्? एकवचने प्रथमाविभक्ति रूपं?
एकवचने ताः,
न न, एकवचने प्रथमाविभक्तिरूपम्.
प्रथमविभक्ति तु सा,
न न, सा नास्ति,
एष, एष, एषा, एषा.
एषा इति एकवचने किन्तु बहुवचनम्
एताः एताः नाटके अदृश्येताम् अत्र तु एताः नाटके नाटके तु सप्तमी विभक्ति अस्ति
भवितुम् अर्हति
परन्तु नाटकं नाटकं एकवचने
अस्तु
तत्र द्विवचने अस्ति नाटके
नाटकद्वयं नाटके
नाटके अदृश्येताम् तत्र ताः नाटके अपश्यताम्
न न न अपश्यतां न तत्र प्रथमतया लट् लकाररूपं कर्त्री लट् लकाररूपं वदतु
लट् लकारं ताः एताः नाटके न पश्यता पश्यन्ति आम् एताः नाटके पश्यन्ति एताः नाटके अपश्यन्
अपश्यन् हा इति अस्ति नाटके अपश्यन् नाटके द्विवचने हा इति समीचीनम् अस्तु अग्रिमं
भवद्भिः उत्तराणि औद्यन्त भवद्भिः अत्र भवन्तः उत्तराणि उत्तराणि तु एकवचनं द्विवचनम् एकमस्ति भवन्तः उत्तराणि वदन्
धातुः कः इति ज्ञातव्यः अस्ति महोदय
तत् वद् धातुः अस्ति
वद् धातुः समीचीनं
वदन्ति
हा तत्र
अवदन्
भवन्तः उत्तराणि
भवन्तः उत्तराणि अवदन्
अवदन् हा तत्र तत्र वदति किं भवति उध्यते इति भवति तदनन्तरस्य योजनेन तत्र औ इति औद्यता औद्येताम् औद्यन्त हा इति भवति समीचीनम् अस्तु इदानीं तत्र भाविप्रयोगस्य वाक्यानि परिशीलयामः तर्हि तत्र वेदभगिनी अग्रे वृक्षे
एतानि सर्वाणि कर्मणि लङ्लकाररूपाणि सन्ति वृक्षैः अवृध्यत वृक्षैः अवृध्यत भावप्रयोगे अस्ति तत्र तस्य वृक्षैः वृक्षाः वर्धन्ति वृक्षाः वर्धन्ति
तत्र आत्मनिपदि धातुः अस्ति भगिनि
ओ वर्धते वर्धते ओके आत्मनेपद्या ओके वृक्षाः वर्धन्ते
वर्धन्ते समीचीनम् इदानीं लङ्लकाररूपं वदतु
लङ्लकाररूपं वृक्षाः लङ्लकार अवर्धत
अवर्धत अवर्धेताम्
अवर्धत अवर्धेताम् अवर्धन्त परन्तु भावे प्रयोगे प्रथम एकवचनरूपम् एव अस्ति न महोदय तत्र
अतः तत्र
तदेव
किन्तु भावे प्रयोगे भावे प्रयोगवाक्यं तत्र क्रियापदम् भवेत् सत्यं तत्र अवृध्यत इति तत्र वचनं किं क्रियापदस्य
अवृध्यत इति एकवचनं प्रथम पुरुषे एकवचनमस्ति
एकवचनमस्ति एतद् भावे भावे प्रयोगवाक्यमस्ति वा
आम् आम् वृक्षैः अवृद्यत भावे प्रयोगे तत्र कर्म कर्म कर्ता अस्ति वृक्ष परन्तु कर्मपदं नास्ति
समीचीनं भगिनि हा उत्तमम् इदानीं भवती किं कृतवती कर्तृरूपं
वृक्षाः कर्तृरूपं कर्तृरूपं वृक्षाः वर्धन्ते तस्य लङ्लकाररूपं वदति वा वदामि वा वृक्षाः अवर्धन्त
इति समीचीनं खलु इदानीं समीचीनं वा
आम् आं महोदय आम्
अग्रिमं
वृक्षाः अवर्धन्त कर्तृरूप कर्मणि रूपं किं वदामि लङ्लकाररूपमस्ति वृक्षाः अवर्धन्त
इति समीचीनम् अस्तु अग्रिमं
बालैः उच्चैः अहस्यत बालैः उच्चैः अहस्यत बालैः बालाः बालाः उच्चैः तस्य किं
तिष्ठति भगिनि उच्चैः तिष्ठति कार्यं
बालाः उच्चैः हसन्ति इति
समीचीनं
लट्लकाररूपमस्ति लङ्लकाररूपम् अस्ति बालाः उच्चैः अहसन्
अहसन् समीचीनं भगिनि अहसन् अस्तु उत्तममस्ति अस्तु अग्रे शोभा भगिनि
सस्यैः अकम्प्यत सस्यानि सस्यानि कम्पन्ते अनन्तरं
कम्पन्ते इति लट्लकारे
लट्लकारे अल तत्र लङ्लकारे सस्यानि अकम्पत अकम्पन्त
अकम्पन्त
तत्र सस्यानि अकम्पन्त
कम्प्
इति धातुः
अकम्पन्त समीचीनम्
अकम्पन्त बहुवचने तत्र कर्मणि प्रयोगे किं तत्र भावे प्रयोगे लङ्लकाररूपं सस्यैः अकम्प्यत इति भवति सस्यैः इति तृतीय कर्तृपदस्य तृतीया अपि च अकम्प्यत इति एकवचने एव भवति भावे प्रयोगे अकर्मकधातूनां कृते
समीचीनम्
अकम्प्यत इति यक् प्रत्ययस्य योजनेन
समीचीनं भगिनि
तेन तल्पे अशय्यत तल्पे इत्युक्ते किं महोदय
तत्र यस्मिन् तत्र निद्रां कुर्मः
मञ्चम् इति वा
मञ्च
तल्प अस्तु तेन तल्पे अशय्यत तत्र शयने शीङ् इति धातुः तस्य कर्तरि लट् भवति शेते इति
सः
सः तल्पे शेते अपि च शेते इत्यस्य तत्र लङ् रूपम् अश शी इति धातुः भवति तत्र
भगिनि तत्र यथा तत्र सेवते इति अस्ति चेत् किं भवति
असेवत इति भवति
अतः शेते इति अस्ति चेत् किं भवति
अशेत् अशेत् सेवते किम् असेवत इति लङ् अवर्तत इति असेवत अशयता भवति वा महोदय
न न भगिनि नाम तत्र शेते इति उक्तवती खलु सेवते इति अस्ति चेत् किं कुर्मः ते स्थाने थ इति योजयामः खलु
असेवत
खलु अकारः आदौ अडागमः आदौ तदनन्तरं ते स्थाने थ इति अस्ति खलु अयोगः सेव ते स्थाने थ अतः असेवत इति खलु अत्र
तत्र शेता इति भवति अट् योगः शेता अशेत
तावदेव
अशेत
अशेत
तर्हि तत्र
तत्र
सः तल्पे अशेतः
तत्र विशिष्टधातुः इति कृत्वा तत्र द्विवचने बहुवचने प्रायशः तत्र सामान्यरूपं नास्ति इति मन्ये किन्तु तत्र
शेरते इति भवति शेते
तद् न जनं
विभयाते शेरते इति किमपि भवति
हा किन्तु अशेत इति तत्तु समीचीनम्
आम् महोदय
अस्तु अग्रे तत्र हर्षदा भगिनी भवत्याः पुस्तके तत्र वृक्षात् पर्णैः अपत्यत इति अस्ति
वा आम् आम्
आम् तर्हि तत् पठतु भगिनि
वृक्षात् पर्णैः अपत्यत वृक्षात् पञ्चमी तदेव तिष्ठति वृक्षात् पर्णैः तृतीया बहुवचन पर्णानि इति भविष्यति अपत्यत पतति लट्लकाररूपकर्तरि अपतन् पर्णानि बहुवचने अस्ति अतः अपतन् भविष्यति वृक्षात् पर्णानि अपतन्
अपतन् समीचीनम्
शिशुना अतुष्यत शिशुना शिशुः भवति तृतीया एकवचनमस्ति शिशुना अतः शिशुः इति भवति कर्तरि वाक्ये अनन्तरम् अतुष्यत् धातु लट्लकारे कर्तरिरूपे तुष्यति अतः शिशुः अतुष्यत्
अतुष्यत् हा समीचीनं शिशुः अतुष्यत् हा समीचीनं तावदेव अस्ति वा वाक्यं तत्र अन्यानि वाक्यानि सन्ति खलु भाविप्रयोगवाक्यानि भाविप्रयोगवाक्यानि तावदेव सन्ति वा भवत्याः
तावदेव सन्ति
अस्तु
षड्वाक्यानि सन्ति
अस्तु भगिनि तर्हि तत्र अग्रे यदस्ति तद् एकवारं पठतु भगिनि एतानि वाक्यानि परिशीलयत इति
एतानि वाक्यानि परिशीलयत् कर्तरिप्रयोगः कर्मणि प्रयोगः ऋषिकेशः गुडाकेशम् अनयत् कर्मणि प्रयोगे ऋषिकेशेन गुडाकेशः अनीयत
अनीयत अस्तु
तत्र द्वितीयवाक्यमस्ति भीष्मः शरान् अमुञ्चत् कर्मणि प्रयोगे भीष्मेण शराः अमुच्यन्त
मुच्यते धातुः अमुच्यन्त
तृतीयमस्ति युक्ताः शान्तिम् आप्नुवन् कर्मणि प्रयोगे युक्तैः शान्तिः आप्यत्
हा तत्र धातुः कः
आप्
आप् इति धातुः
आप् धातु
यत्र समीचीनं हा अस्तु विशेषतः भगिनी नमस्कारः अस्तु तर्हि अग्रे तत्र वेदा भगिनी अग्रे पठति वा वेदा भगिनी
क्षम्यतां महोदय म्यूट् मस्ने अज्ञानं जन्तून् आवृणोत् अज्ञानेन जन्तवः आव्रियन्त तत्र वृणोत् आवृणोत् वृणधातु वा वृणोत् वृणु वा वृणु वृणु अस्ति वा वृणु अस्ति वा न जानामि तत्र एकवारं
वृ इति एव अस्ति तत्र प्रायशः श्नु इति प्रत्ययः आगच्छति इति मन्ये स्वादिगणे वृणोत् इति नु इति नो भवति तत्र रेपः अस्ति ऋकारः अस्ति आवृणोत् इति भवति खलु तत्र
धातु किमस्ति भगिनि
वृ इति आवरणे इति वृ इति जानामि तत्र वृ धातुः
किमर्थं वृणोत् वृणोत् इति किमर्थम् आयाति
तत्र श्नु इति विकरणप्रत्ययः भवति चेत् नो इति भवति गुणः भूत्वा नो इति तत्र वृ इत्यस्य ऋकारस्य निमित्तेन णो इति भवति
ओके ओके सो श्नु प्रत्ययस्य कारणं विकरणप्रत्यय सो वृ तस्य कर्मणि प्रयोगरूपमस्ति अज्ञानेन जन्तवः अज्ञानेन जन्तवः आव्रियन्त वृ धातु वृ स्थाने व्री किमर्थं व्रि भवति वृ व्रि यन्त तस् वृ किमर्थं व्रि भवति इति
ऋकारान्तधातवः दीर्घ इकारान्त भवन्ति तत्र मृ अस्ति चेत् म्रि म्रि भवति स्मृ अस्ति चेत्
इर् भवति ऋकारस्य स्थाने इर् आदेशः भवति अपि
दीर्घ इकारः मृ इति म्रि इति भवति तत्र दीर्घ ऋकारान्त धातवः दीर्घ इकारान्त भवन्ति तत्र
परन्तु भगिनि अत्र तु ह्रस्व इकारान्त दीयते
भगिनि वेदा भगिनि पेज् 123 पश्यतु भगिनि तत्र ब्रू बृणोति ब्रियते इति दत्तमस्ति
एकनिमिषं कुत्र महोदय
123 अधोभागे कोष्टकमस्ति खलु तत्र
बृ बृणोति ब्रियते अब्रियते ब्रियते तदेव अब्रियन्त बहुवचने ब्रियन्त ओके
नाम आवृणोति नाम कवर् खलु
आवृणोति अज्ञानं जन्तून् आवृणोत् कः तस्य अवृधातु
नाम अज्ञानं जन्तून् आवृणोति इति इत्युक्ते किम् इति जानाति खलु
न महोदय किमस्ति आवृणोत् इत्युक्ते
कवर् कवर् कवर्
कवरा ओके ओके जन्तून् ओके अज्ञानं जन्तून् आवृणोत् अज्ञानम् इस् कवरिङ्ग् दि जन्तून् जन्तवः
समीचीनं तथैव अस्तु अग्रिम
गीता गीतोपदेशेन अर्जुनः स्मृतिम् अलभत गीतोपदेशेन 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 अर्जुनः अर्जुनेन स्मृतिः स्मृतिं स्मृतिः अलभ्यत
इति अस्तु इदानीं इदानीं एतावत् तत्र परिचयत्वेन उक्तवन्तः इदानीं तत्र अंशान् अपि वदामः तर्हि
गीतोपदेशेन अर्जुनः अर्जुनः कर्ता अस्ति तस्य तृतीयविभक्ति अर्जुनेन गीतोपदेशेन अर्जुनेन स्मृतिं स्मृति तस्य कर्ता कर्मस्य रूपं प्रथमा भवति कर्मणि प्रयोगे स्मृतिः स्मृतिं स्मृतिः भवति तस्य प्रथम एकवचन क्रिया अस्ति अलभ्यत लब् धातु तस्य कर्म
तत्र अलभ्यत इति लट्लकाररूपं किं भवति
लभति अर्जुनेन स्मृतिः लभति स्मृतिः लभति ओ अर्जुनः स्मृतिं लभति
अलभत इति अस्ति खलु
आम् आं महोदय
अलभत
तु लङ्लकारे
लङ्लकारे लट्लकारे किं भवति
लट्लकारे लभति न
लभते तत्र पठति किं भवति लङ्लकरूपं पठति
महोदय
पठति इति क्रियापदस्य लङ्लकरूपं किम् अस्ति
लङ्लकाररूपम् अपठत्
अपठत् न तु अपठत् खलु
अपठत् अस्ति चेत् अर्धदा
आत्मनेपदी इति समीचीनं
तस्य आत्मनेपदीरूपम् अस्ति
अतः तत्र अलभत इति तत्र लट्लकारे किं भवति
अलभत तस्य लट्लकाररूपं भवति लभति लभति भवति लभते 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 लभते
समीचीनं समीचीनम् इदानीं तत्र लभते इति कर्त्री लट् अस्ति कर्मणि लट् किम् अस्ति
कर्मणि लभते लभ्यते
लभ्यते समीचीनम् इदानीं कर्मणि लङ्
अलभ्यत
हा तदेव अस्ति खलु तत्र समीचीनम् अस्तु अन्तिम अग्रिमं
मुमुक्षवः जरामरणमोक्षाय अयतन्त मुमुक्षवः जरामरणमोक्षाय अयतन्त दे ट्रै अयतन्त इति अस्ति मुमुक्षवः बहुवचने अस्ति
एकवचने रूपं किं भवति क्रियापदस्य
लट्लकारे एकवचनरूपमस्ति मुमुक्षुः
केवलं क्रियापदस्य लट्लकारम् इत्युक्ते
क्रियापदस्य अयतन्त अस्ति तस्य अयतन्ते यतन्ते
लट्लकाररूपम् एकवचने
एकवचने यतते
यतते इति समीचीनं हा इदानीं तत्र तस्य कर्मणि
कर्मणि यतते यतते यत्यते
हा इदानीं कर्मणि लङ्
कर्मणि लङ् कर्मणि लङ् अयत् यत्यत प्रथमवचने अयत्यत
तदेव दत्तमस्ति खलु
आम् आं महोदय मुमुक्षुभिः जरामरणमोक्षाय अयत्यत
किमर्थम् अयत्यत इति एकवचने अस्ति
जरा मुमुक्षुभिः जरामरणमोक्षाय तत्र भावे प्रयोगे अस्ति वा
समीचीनं भगिनि तथैव अस्ति यतन्ते
तदेव
हा नाम तत्र यतन्ते अस्ति चेत् प्रश्नः किं भवति किं कर्तुम् अथवा किमर्थं यतन्ते इति एव भवति न तु किं यतन्ते इति अत्र अकर्मकः धातुः अत्र मुमुक्षवः किं कर्तुं यतन्ते
जरामरणमोक्षाय
मोक्षार्थं मोक्षाय इति
चतुर्थी
मोक्षार्थं तत्र जरणमरणात् मोक्षं भवेत्
इति प्रयत्नं करोति
तस्य कृते ते यतन्ते तदर्थं ते यतन्ते मुमुक्षवः अतः मुमुक्षुभिः जरामरणमोक्षाय तिष्ठति एव चतुर्थी विभक्ति अस्ति चेत् कर्तृपदं नास्ति क्रियापदं तत्र कर्तृपदं नास्ति कर्मपदं नास्ति विशेषणं नास्ति क्रियापदं नास्ति तिष्ठति अतः जरामरणमोक्षाय इति एव भवति भाव्यप्रयोगः कर्मपदं नास्ति इति कृत्वा अयत्यत इति अस्ति
समीचीनम्
समीचीनम् अस्तु अग्रे हर्षदा भगिनि
आम् भगवान् भक्तानां योगक्षेमम् अचिन्तयत्
ओ भगिनि भवती एव उपरि वाक्यम्
आमाम् अहमेव पठामि
अस्तु अस्तु तर्हि अग्रे तत्र शोभभगिनी अग्रे पठतु
चिन्ता मास्तु
तदनन्तरं भवती पठति भगिनि क्षम्यतां शोभभगिनी
आं महोदय तत्र महोदय वदामि वा ऋकारान्तधातूनां कृते ऋङ्गादेशः भवति इति अस्ति इत्युक्ते तत्र रि इति आदेशः भवति ऋकारस्य अतः तत्र क्रु इति क्री भवति क्रियते भ्रू इति भ्री भवति भ्रियते तथा एव ह्रस्वऋकारान्तधातूनां कृते आदेशाः भवन्ति
ओ अस्तु
रि इति आदेशाः भवन्ति
भवति अस्तु क्रु इति क्रियते भ्रू इति भ्रियते
भ्रियते तथा एव अन्येषां कृते अपि
अन्यत् किमपि तत्र
भ्रू अस्ति चेत् व्रियते भवति
तत्र
किं महोदय
ध्रु इति ध्रु तु तत्र
ध्रियते ध्रु अस्ति चेत् ध्रियते भवति
ध्रियते हा तदपि समीचीनं हा अस्तु हा अस्तु समीचीनं धन्यवादः
अस्तु अत्र अग्रे भगवान् भक्तानां योगक्षेमम् अवहत् तत्र वह् इति धातुः तत्र लङ्लकारे अवहत्तिकि इति एकवचने अपि च कर्मणि भवति भगवता भक्तानां योगक्षेमम् औह्यता इति औह्यता इति लङ्लकारे बहुवचने न एकवचने भवति तत्र तकारः एव अन्ते
अवहत् इति तत्र लट्लकरूपम् अवहत् इति लट्लकरूपं किमस्ति
अवहत् इति लट् वहति इति भवति क्षम्यता आह्यत इति तत्र कर्मणि प्रयोगे
किन्तु इदानीं तत्र कर्मणि लट् लकाररूपं वदतु
कर्मणि लट् लकाररूपं भगवता
न तत्र वहति इति उक्तवती खलु भगिनी केवलं तत्र क्रियापदस्य
तत्र क्रियापदस्य कर्मणि रूपं
हा क्रियापदस्य अवहत् इति लङ्लकाररूपं वहति इति कर्त्री लट् इदानीं कर्मणि लट् किम् इति वदतु
कर्मणि लट् तत्र ओ कर्म उह्यत उह्य कर्मणि लट् अस्तु तत्र किमपि अन्यत् अस्ति चेत्
तत्र ब अस्ति चेत्
वदति अस्ति चेत् उच्यते उद्यते इति भवति
अतः अत्र
उह्यते
ऊह्यते समीचीनम् इदानीं लङ्लकाररूपम्
औह्यत
औह्यत इति अतः तत्र सोपानानि जानीमः खलु यदि सोपानानि तत्र स्पष्टेन तत्र मनसि सन्ति चेत् क्लेशः न भवति खलु अस्तु अस्तु इदानीं समीचीनम् अस्तु तत्र भगवान् भक्तानां योगक्षेमम् अवहत् इदानीं वदतु तर्हि तत्र किं किं जातं
तत्र भगवान् कर्तृपदम् एकवचने अपि च प्रथमविभक्तौ भक्तानाम् इति कर्मपदं क्षम्यतां भक्तानाम् इति तत्र षष्टिविभक्ति बहुवचने योगक्षेमम् इति कर्मपदम् अवहत् इति क्रियापदं क्रियापदं कर्तारम् अनुसृत्य भवति तत्र अपि च कर्मणि प्रयोगे भगवता इति तृतीया भगवान् इत्यस्य भक्तानां योगक्षेमम् इति तत्र षष्टिविभक्त्याः किमपि परिवर्तनं न भवति अपि च तत्र योगक्षेमम् इति तथा एव तिष्ठति इत्युक्ते तत्र नपुंसकलिङ्गे इति मन्ये क्षेमम् इति
कर्मपदं
कर्मपदम् औह्यता इति अधुना औह्यता इति योगक्षेमम् इति पदम् अनुसृत्य कर्मपदम् अनुसृत्य रूप भवति अपि च कर्मपदं तत्र एकवचने प्रथमविभक्तौ भवति
समीचीनं समीचीनम् अस्तु अग्रिमं
ऋषयः ब्रह्मनिर्वाणम् अलभन्त अत्र अस्तु अलभन्त इति लङ्लकारे कर्तरिप्रयोगे बहुवचनम् ऋषयः इति कर्तृपदम् अनुसृत्य भवति अपि च ब्रह्मनिर्वाणम् इति तत्र कर्मपदम् एकवचने लब् धातुः लभते लभते लभेते लभन्ते इति भवति अलभता इति एकवचने अलभता अलभताम् अलभन्त इति भवति अलभेतां क्षम्यताम् अलभेताम् अलभन्त तत्र कर्मणि प्रयोगे ऋषयः इति ऋषिभिः कर्तृपदस्य तृतीया ब्रह्मनिर्वाणं पुनः तत्र तथा एव तिष्ठति प्रथमविभक्तौ अस्ति चेदपि अतः तत्र नपुंसकलिङ्गं लिङ्गे अस्ति अलभ्यता इति कर्मणि प्रयोगे लब् धातोः लब् धातुना सह यक् प्रत्ययस्य योजनेन अलभ्या इति अङ्गं भवति अलभ्यता इति एकवचने
कर्मणि लट् अस्ति लभ्यते
लभ्यते इति अस्ति
तदनन्तरम् अलभ्यत
अलभ्यत एकवचने क्रियापदं कर्मपदम् अनुसृत्य भवति
समीचीनं भगिनि अस्तु अग्रिममपि करोतु तत्र इदानीं भावे
तत्र कर्तरि अपि भावे प्रयोगौ सैनिकाः अयुध्यन्त इति कर्तरीप्रयोगः तत्र सैनिकाः इति बहुवचने प्रथमविभक्तौ कर्तृपदम् अयुध्यन्त इति लङ्लकारे बहुवचने क्रियापदं तस्य भावे कर्तृपदस्य तृतीया सैनिकैः अपि च तत्र युद्ध धातुः युद्ध्या इति अङ्गं भवति अट् आगमनेन अयोध्या इति तत् अपि च ता इति अन्ते लङ्लकारे एकवचने एव भावे प्रयोगः अतः अयोध्यता इति एकवचने प्रथमपुरुषे रूपम्।
हा समीचीनं, तत्र कर्मणि लट् लकाररूपं किं भवति?
कर्मणि लट् लकारे सैनिकैः अस्तु तत्र भावे तत्र अधुना कर्मणि लट् लकारे सैनिकैः अयुध्यन् किं भवति तत्र युध्यन्ते इति भवति लट् लकारे अस्ति चेत्।
न न न सैनिकैः
सैनिकाः युध्यन्ते सैनिकैः सैनिकैः तत्र पुनः यक् अतः सैनिकैः युध्यते भवति वा युध्यते एव किमर्थं तत्र युध्यते इति
तथैव यत् तत्र मध्ये एतत् सोपानमस्ति चेत् सुलभः भवति तावदेव।
आम्
नाम तत्र अयुध्यन्त नाम तत्र तत्र युध्यन्ते इति
युध्यन्ते इति
सैनिकैः सैनिकैः युध्यते सैनिकैः युध्यते
तत्र कर्तृपदमेव अस्ति कर्मपदं नास्ति।
कर्मपदं नास्ति इति न किन्तु तत्र अकर्मकधातुः अस्ति भावे प्रयोगः।
क्षम्यतां तत्र इत्युक्ते कर्मपदं नास्ति इत्युक्ते तत्र न भवितुम् अर्हति अतः तत्र कर्मणि प्रयोगे अपि एकवचने एव
हा इति भवति समीचीनम्। अस्तु समीचीनं भगिनि अस्तु अग्रे नरेश् महोदय।
आम् महोदय, मूढाः अज्ञानेन अमुह्यन्त मूढाः तत्र कत्र पदं तस्य तृतीयविभक्ति मूढैः मूढैः अज्ञानेन तु स्थीयते तत्र अमुह्यन्त तस्य भावप्रयोगः अस्ति चेत् तत्र एकवचने भवति अमुह्यत मूढैः अज्ञानेन अमुह्यत
मूढैः अज्ञानेन तिष्ठति समीचीनं।
हस्तात् गाण्डीवम् अस्रंसत अत्र हस्तात् तु स्थीयते पञ्चमी विभक्ति अस्ति गाण्डीवं तस्य तृतीयविभक्ति भवति गाण्डीवेन अस्रंसत तस्य एकवचनं भवति अस्रस्यत कर्मणि प्रयोगे अस्रस्यत
अस्तु तर्हि तत्र अस्रंस्यत इति तत्र तस्य लट्लकरूपं वदतु
लट् रूपम् अस्रंसति
न न न तत्र असंसत इति अस्ति चेत् तत्र परस्मै वा आत्मनेपदी वा
आत्मनेपदी अस्रंसते
अकारः किमर्थम् आदौ
स्रंसते स्रंसते
स्रंसते अस्रंसत तत्र किं भवति तत्र रूपं दृष्ट्वा तत्र गाण्डीवेन असृष्यत इति अस्ति अतः तत्र तस्य लट्लकरूपं वदतु तर्हि
लट् लकारः अस्ति कर्मणि लट् गाण्डीवेन अस्रंस् अस्र
रूपं दृष्ट्वा कार्यं यथा भवान् अस्रंसत इति स्वीकृत्य स्रंसते इति उक्तवान् तथैव अत्र
स्रंस्यते
स्रस्यते खलु
स्रस्यते गाण्डीवेन स्रस्यते
इति अस्ति समीचीनम् अस्तु अग्रे
शिबिरे सैनिकाः अशेरन् शिबिरे तु स्थीयते सैनिकाः तस्य तृतीयविभक्ति सैनिकैः शिरन् तु लङ्लकारे बहुवचनम् अस्ति अशेरन् परन्तु अत्र तु भावे प्रयोगे एकवचनं भवति सैनिकैः अशय्यत
हा तत्र धातुः कः इति मया न
शीङ्धातुः
इति वा महोदय तत्र परस्मैपदी खलु
परस्मैपदी
इति अस्ति खलु अतः तत्र
अशेरन् अस्ति चेत् परस्मैपदी अस्ति परन्तु अशय्यत अत्र अस्ति न जानामि किमस्ति परस्मैपदी
शिबिरे सैनिकाः शेरन् तत्र न जानामि तत्र अस्तु तर्हि तत्र तत्र किमपि कर्तुं शक्नुमः अस्तु अग्रिमम्
अर्जुनः रथे उपाविशत् उपाविशत् अत्र उपसर्गः अस्ति अविशत् उपाविशत्
लट्लकारे किं भवति
लट्लकारे अर्जुनः रथे उपविशति उपाविशति
समीचीनम्
उपाविशति
उपाविशति अस्तु महोदय तत्र किम् उक्तवान्
उपविशति अकार नास्ति लङ्लकार नास्ति लट्लकारे उपविशति अर्जुनः रथे उपविशति
इदानीं विशति इति तत्र कर्मणि लट् करोतु तर्हि
तत् अस्ति उपविश्यत् उपविश्यत्
विश्य तत्र उपविश्य त अथवा ते
ते उपविश्यते आम्
उपविश्यते तत्र लट्लकवाक्यं वदतु अर्जुनेन
अर्जुनेन रथे उपविश्यते
अर्जुनेन रथे उपविश्यते इदानीं तत्र तस्य लङ्लकारः
लङ्लकार अर्जुनेन रथे उपाविश्यत
विष्यते किं भवति विष्यते इति पदस्य लङ्लकाररूपं
लङ्लकार अविष्यत
अविष्यत इदानीं उपसर्गं योजयामश्चेत् उपयोगः अविष्यत
अविष्यत उपाविश्यत
इति अस्ति खलु अस्तु समीचीनम् अस्तु तर्हि अग्रे सरामः तत्र तर्हि हर्षदभगिनी इदानीम् अग्रे तत्र एकवारं तत्र रूपाणि यानि दत्तानि एकवारं पठतु भगिनि जानीमः किन्तु केवलम् एकवारं पठतु
आं महोदय पठामि कर्मणि लङ्रूपाणि क्रूधातुः अक्रियत अक्रियेताम् अक्रियन्त अक्रियथाः अक्रियेथाम् अक्रियध्वम् अक्रिये अक्रियावहि अक्रियामहि वद्धातु वद्धातुः औद्यत औद्येताम् औद्यन्त औद्यथाः औद्येथाम् औद्यध्वम् औद्ये औद्यावहि औद्यामहि कर्मणि लङ्रूपाणि रम् धातुः अरम्यत अरम्येताम् अरम्यन्त अरम्यथाः अरम्येथाम् अरम्यध्वम् अरम्ये अरम्यावहि अरम्यामहि
हाँ इति अस्ति समीचीनम् अस्तु इदानीं तत्र अस्तु तत्र कृ धातुः रूपाणि स्वीकुर्मः तत्र केवलम् अभ्यासार्थं तत्र भगिनी तत्र वाक्यं रचयतु तत्र अक्रियत अस्ति चेत् लघुवाक्यं करोतु अक्रियत
अक्रियत अरे बापे
तत्र भवती अक्रियत करोति शोभा भगिनी अक्रियत द्विवचने नरेश महोदय बहुवचने अपि तत्र वेदा भगिनी तत्र
नूतनवाक्यनिर्माणमेव कठिनमस्ति महोदय
नियमान् मनसि तत्र
आमां तृतीया तया तया
लघुवाक्यं कार्यं
कार्यम् अक्रियत तया कार्यम् अक्रियत
इति एव तावत् लघुवाक्यं समीचीनम् अस्तु
आम् अस्तु 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 धन्यवादः
दीर्घवाक्यं लघुवाक्यं केवलं तत्र अभ्यासार्थं तदा अस्तु तत्र अस्तु अग्रे शोभा भगिनी द्विवचने
आं महोदय तत्र द्विवचने अधुना अक्रियेताम् इत्यस्य अन्वयः भवेत् कार्यम् अक्रियत अतः तया कार्ये अक्रियेताम्
हा समीचीनं तया कार्ये
अक्रियेताम्
समीचीनं कर्मपदस्य तत्र कर्मपदम् अनुसरति इति कृत्वा कार्यम् इति स्थाने कार्ये उत्तमं हा अस्तु नरेश महोदय इदानीं बहुवचने
अक्रियन्त अक्रियन्त तत्र बहुवचने कार्याणि अहं कार्याणि अक्रियन्त
कार्याणि समीचीनम् अक्रियन्त समीचीनं किन्तु तत्र
ओ अस्तु सः सः कार्याणि अक्रियन्त
न न न
तेन तेन कार्याणि अक्रियन्त
इति समीचीनम् अहं स्थाने
अहं स्थाने मया मया
अस्तु समीचीनम् अस्तु उत्तमम् अस्तु हा अस्तु महोदय अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र वेदा भगिनी तत्र अरम्यत इति वाक्यं वदतु लघुवाक्यम्
अरम्यत एकवचने वा प्रथमभूमि अरम्यत अरम्यत बालैः न बालेन बालेन गीतम् अरम्यत बालेन किम् अरम्यत रम्यत इत्युक्ते
अरम्यत अस्तु तत्र बालेन अरम्यत इति स्वीकुर्मः
बालेन अरम्यत वा
इति स्वीकुर्मः अस्तु एतत् समीचीनम् इति चिन्तयामः अस्तु तत्र मध्ये किं स्थापनीयं न वा इति इदानीं मास्तु इदानीं तत्र केवलं बालेन अरम्यत इति स्वीकुर्मः खलु अस्तु इदानीं तत्र अस्तु शोभा भगिनी इदानीं तत्र अरम्येताम् इति उपयुज्य वाक्यं वदतु
तत्र अधुना कर्मपदं भवनीयं भवति बालेन हा रं धातुः तत्र इत्युक्ते तत्र अरम्यताम् इति कर्मपदम् अनुसृत्य द्विवचने
किन्तु रं धातुः कीदृशः धातुः
ओ रं धातुः कर्मपदं नास्ति अस्तु रं रमते तत्र हा कर्मकः धातुः अतः तत्र कर्मपदस्य चिन्तनमेव नावश्यकं तत्र तर्हि बालेन बालाभ्याम् अरम्यताम्
किन्तु तत्र अकर्मकधातुः अस्ति चेत् कर्मणि प्रयोगः वा भावे प्रयोगः वा
भावे प्रयोगः
भावे प्रयोगे नियमः
तर्हि तत्र अस्तु बालाभ्याम् अरम्यत
किन्तु
महोदय तत्र तत्र अधः दत्तमस्ति एतेषु प्रथमपुरुषे एकवचनस्य एव प्रयोगः भवति न तु अन्येषां
वयं जानीमः खलु अतः तत्र रम्येताम् इति रूपं यद्यपि अस्ति किन्तु तस्य प्रयोगः कदापि न भवति खलु
आम् 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 भावे प्रयोगे कदापि न भवति
खलु भगिनि शोभा भगिनि
आम् महोदय तत्र
रम्येताम् इति
अस्ति यतोहि तत्र सर्वत्र विभक्तयः अपि च क्रियापदानां रूपाणि भवन्ति किन्तु तस्य उपयोगः भवनीयम् एव इति तु नास्ति
भवनीयम् इति न भवति न कर्तुं शक्नुमः
न तत्र रूपं तु अस्ति किन्तु प्रयोजनं नास्ति चेदपि रूपाणि भवन्ति
सत्यं सत्यम् अतः तत्र किन्तु एतत् मनसि भवेत् खलु नाम तत्र क्रूधातोः नवरूपाणि सन्ति तेषां प्रयोगः भवति किन्तु रं धातोः नवरूपाणि सन्ति इति कृत्वा तस्य नवरूपाणां तत्र प्रयोगः भवति इति चिन्तनं मास्तु केवलम् एकस्य एव रूपस्य प्रयोगः अरम्यत सर्वदा खलु
आम् आम् तत्र बालेन अरम्यत बालाभ्याम् अरम्यत बालैः अरम्यत
मया रम्यत
त्वया रम्यत त्वया रम्यत
अतः तत्र
युष्माभिः सर्वत्र अरम्यत एव
अतः तत्र अरम्येतां कदापि न भवति
आमां सत्यं तत्र रम् इति धातुः अकर्मकः इति
ट्रिक् क्वेश्चन् इति
आं महोदय
अस्तु तर्हि इदानीम् अग्रे सरामः इदानीं तत्र नरेश महोदय तत्र अग्रे तत्र अभ्यासः अस्ति तत् करोति वा
आं महोदय यथोदाहरणम् अत्र निर्दिष्टानां क्रियापदानां रूपाणि लिखत विन्द्यते विन्द्यते अत्र अविन्द्यत अस्ति
अतः तत्र तस्य नवरूपाणि वदतु महोदय अविन्द्यत
अविन्द्यत अविन्द्येताम् अविन्द्यन्त अविन्द्यथाः अविन्द्याम् अविन्द्यध्वम् अविन्द्ये अविन्द्यावहि अविन्द्यामहि
अस्तु समीचीनम् अस्तु हर्षदभगिनी अग्रे अस्तु तर्हि तत्र वेदा भगिनी
आम् महोदय ऊह्यते ऊह्यते औह्यत
औह्यत तत्र ऊह्यते इति किम् अस्ति वहति इति धातुः खलु तत्र नाम ऊह्यते इति कर्तृ लट् वा कर्मणि लट् वा ऊह्यते
ऊह्यते ऊह्यते कर्तरि लट्
न लट् अस्ति किन्तु कर्त्री नास्ति
ओ ऊह्यते आमामाम् ऊह्यते कर्मणि लट् कर्मणि
कर्त्री लट् रूपं किमस्ति
कर्त्री लट् रूपं वहति
वहति समीचीनं वहति ऊह्यते भवति ऊह्यते लङ्लकारे औह्यत इति भवति समीचीनम्
ऊह्यत उद्यते अपि उद्यते अपि वद् दातु वा वद्
समीचीनं वद् उद्यते इति भवति समीचीनं
वदति तस्य रूपं भवति उद्यते न उद्यते लट् रूपं तस्य उद्यत इति लङ् रूपम् अस्ति
किं किं लङ् रूपं किमस्ति
अ उद्यत
अबुद्यत इति नास्ति खलु एकमेव तत्र भवेत् स्वरद्वयं न भवेत् खलु
न किं किं महोदय अ उद्यत न
कथम् कथं भवति अवुद्यत इति
औद्यत सारि औद्यत
तत्र अकारस्य उकारस्य
सन्धिकार्यं भूत्वा औह्यत
औह्यत औद्यत समीचीनम् इदानीं तत्र औह्यत इति औह्यत उह्यते औह्यत
औह्यत
औह्यत इति तस्य नवरूपाणि
वदतु औह्यत औह्येता औह्यन्त औह्यतः औह्यथाः औह्येताम् औह्यध्वम् औह्ये औह्यामहि बहि औह्यामहि
हा इति समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे हर्षदा भगिनि अस्ति
वा आमां महोदय क्षम्यतां मम फोन् गाट् हेङ्ग्ड् किमपि कर्तुं न शक्नोति नौ ऐ केन् टाक् अरे बापरे
इदानीं तत्र उद्यते तत्र वदति उद्यते औद्यत इति अस्ति तत्र औद्यत इति नवरूपाणि वदतु तर्हि
औद्यत उपरि दत्तमस्ति महोदय औद्यत औद्येताम् औद्यन्त आम् आं महोदय आं महोदय
तर्हि तत्र अग्रिमं करोतु भगिनि
पठ्यते पठ्यते
हा पठ्यते किं भवति
अपठ्यत
हा इदानीं तस्य नवरूपाणि वदतु तर्हि
आम् अपठ्यत अपठ्येताम् अपठ्यन्त अपठ्यथाः अपठ्येथाम् अपठ्यध्वम् अपठ्ये अपठ्यावहि अपठ्यामहि
हा इति समीचीनं हा अग्रे नरेश महोदय
उद्यते अधुना महोदय
उद्यते कृतम् अग्रे
स्थीयते स्थीयते स्था धातुः अपि अकर्मकः अतः तत्रापि एकमेव रूपं भवति तत्र अस्तु किन्तु अस्थि स्थीयते इत्यस्य किं भवति अस्थीय अक्रियत अस्थीयत भवति महोदय
इति तावदेव
रूपाणि वदनीयं वा यतो यद्यपि न भवन्ति
न भवन्ति इति त्यजामः अस्तु अग्रिमं कम्प्यते
कम्प्यते तत्र कम्प् इति धातुः कम्प्यते अकम्प्यत इति कम्प् अपि अकर्मकधातुः
हा कम्पते कम्पते
कम्पते इति वृक्षेण कम्पते एव भवति तत्र कर्मपदं न भवति
न वृक्षः कम्पते वृक्षः कम्पते
वृक्षः कम्पते वृक्षेण कम्प्यते तावदेव तत्र कम्प्यते एव
हा समीचीनम् अस्तु
अकम्प्य अकम्प्यत इति भवति
हा इदानीम् अग्रिमं तत्र
उपास्यते तत्र उप आस्यते आस् धातुः आस् तत्र अस्तु अकर्मकः एव आस्य अपि अकर्मकः एव अस्ति खलु महोदय
तत्र आस् आस् धातुः हा आस्ते
आस्ते आसाते इति किमपि
आस्ते अकर्मकः एव
तत्रापि उप आस्ते अस्ति चेत् आस् इति आस्यत इति भवति उपास्यत इति भवति एकवचने
उपास्यत
उपास्यत उपास्यत
समीचीनं तथैव अस्ति हा अस्तु अग्रे नरेश महोदय
काङ्क्षते काङ्क्षते तत्र अकाङ्क्षत भवति
अकाङ्क्षत इति भवति इति मन्ये सत्यं अग्रे
विद्यते
काङ्क्षते इति तत्र प्रायशः भावे एव इति मन्ये खलु
अकाङ्क्षत भवति विद्यते विद्यते तत्र अविद्यत
महोदय तत्र क्षम्यतां काङ्क्ष्यते इति सकर्मकः अस्ति महोदय
सकर्मकः
सकर्मकः तत्र तस्य नवरूपाणि एकवारं
नवरूपाणि अकाङ्क्षत अकाङ्क्षेताम् अकाङ्क्षन्त अकाङ्क्षथाः अकाङ्क्षेथाम् अकाङ्क्षेध्वम्
अकाङ्क्षध्वम्
अकाङ्क्षध्वम् अकाङ्क्षे अकाङ्क्षा वहि अकाङ्क्षा महि
इति अस्ति समीचीनम् अग्रिमं तत्र विद्यते
विद्यते विद्यते तत्र अविद्यता भवति अविद्यता तस्य नवरूपाणि अविद्यता अविद्येताम् अविद्यन्त अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्ये अविद्यावहि अविद्यामहि
अस्तु समीचीनं तत्र पठ्यते इति पूर्वं कृतम् इति मन्ये तर्हि तत्र क्रियते वेदभगिनी क्रियते
महोदय एक संशयः अस्ति उपास्यते उपास्यते कथम् अकारणपूर्वम् आगत अहं चिन्तयामि औपास्यत
महोदय तत्र उप इति उपसर्गः अस्ति खलु
ओ अस्तु अस्तु अस्तु
तत्र उप इति उपसर्गं निष्कास्य अकारः योजयामः खलु
तथा उपास्यते अस्ति आम्
अतः उप इति उपसर्गः अतः
अस्तु अस्तु
उप इति उपसर्गः
उपास्यते
अस्तु वेदभगिनि
क्रियते अक्रियत क्रियते तस्य भावे दातु अस्ति
लङ्कृपं पूर्वं दत्तमस्ति खलु वयं
ओ आम् आं महोदय अक्रियत अक्रियतां अक्रियत अक्रियताः अक्रियेत
मास्तु तत्र दृश्यते इति करोतु
ओ दृश्यते वा ओके दृश्यते पश् दृष्टातु दृश्यते अदृश्यत 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 अदृश्येताम् अदृश्यन्त अदृश्यथाः अदृश्येताम् अदृश्यत्वम् अदृश्ये अदृश्यावहि अदृश्यामहि
हा इति अस्तु समीचीनं अस्तु अग्रे हर्षदा भगिनी अग्रे
आम् अग्रे ऊह्यते औह्यत औह्येताम्
कृतवती भगिनि
हा मम पुस्तके किञ्चित् अधः उपरि एवम् अस्ति
तत् कृतवन्तः अग्रे किमस्ति भगिनि
उद्यते अस्ति
तदपि
आम् आम् किं करोमि मम पुस्तके तु तावदेव अस्ति
अस्तु इदानीं तत्र द्वितीय अभ्यासः यः अस्ति तं
अत्र दत्तानि कर्तरिवाक्यानि यथोदाहरणं कर्मणि वाक्यत्वेन परिवर्तयत उदाहरणार्थ पार्थः गीताम् अशृणोत् पार्थेन गीता अश्रूयत मनुः मनुः
गीता अश्रूयत इति
अश्रूयत
अश्रूयत इति तत्र द्विवचने बहुवचने तत्र प्रथमपुरुषे एव वदतु किमस्ति
प्रथमपुरुषे अश्रूयत अश्रूयेताम् अश्रूयन्त
हा इति अस्ति समीचीनम् अस्तु अग्रे
मनुः इक्ष्वाकुम् अकथयत् अकथयत् मनुना कथयति अकथयत् मनुना इक्ष्वाकुः अकथ्यत
अकथ्यत समीचीनम्
लट् लकारे कर्मणि रूपे कर्मणि प्रयोगे अकथ्यते लङ् लकारे अकथ्यत
तत्र केवलं कथ्यते अकथ्यते न केवलं
कथ्यते कथ्यते लङ् लकारे अकथ्यत
हा इति अस्ति समीचीनम् अस्तु अग्रिमं
वयं भगवतः वर्त्म अन्वसराम वर्त्म वर्त्म इत्युक्ते किं महोदय
वर्त्म इति तत्र अहं चिन्तयामि तत्र मार्गः इति वा वर्त्मन् इति वर्त्मन् मार्गः इति मन्ये भगिनि
अस्तु मार्गः अत्र तु भगवतः इति षष्ठी
वर्तमान
भगवतः षष्ठी एकवचनं तृतीया भगवता
अहं चिन्तितवती भगवता इति एव उक्तवती
न इट् इस् भगवतः वर्तम इस् विच् विभक्ति महोदय
तत्र वयम् इति अस्ति कर्तृपदं वयं वर्तामहि इति अस्ति तत्र अन्ववर्तामहि इति तत्र लङ्लकारे अस्ति तत्र लट्लकारे किं भवति
न न परन्तु महोदय अहं ज्ञातुम् इच्छामि दिस् वर्त्वं का विभक्ति अस्ति अहं न जानामि
तदेव अहं वक्तुम् इच्छामि तत्र अन्ववर्तामहि इति अस्ति खलु वयं
न मम पुस्तके महोदय मम पुस्तके वाक्यमस्ति वयं भगवतः वर्त्म अन्वसराम
अन्वसराम अस्तु अन्वसराम इति अस्ति अस्तु अन्वसराम इति अन्वसराम इति अस्ति तत्र लट्लकारे तत्र लट्लकारे प्रथमपुरुषे रूपं किं भवति
अनुसरामः अनुसरामः
प्रथमपुरुषे
प्रथमपुरुषे
अनु
अनु अनुसरति
अनुसरति अस्तु इदानीं तत्र अनुसरति इति क्रियापदं जानाति इदानीं तत्र प्रश्नः अस्ति सकर्मकः वा अकर्मकः वा इति सः अनुसरति इति अस्ति चेत् प्रश्नः भवति वा कम् अनुसरति
सकर्मक न महोदय
सकर्मक अस्ति चेत् कर्मपदं भवितुम् अर्हति खलु
आम् आम्
अतः तत्र वर्त्म इति एव कर्मपदम्
एतत् द्वितीया विभक्ति अस्ति महोदय प्रथमा किं
नपुंसकलिङ्गपदं तत्र कर्म कर्मणि
कर्म इव चलति अस्तु अहं न ज्ञातवती महोदय धन्यवादः अस्माभिः भगवतः वर्त्म अन्वसरामः सरति किं भवति स्तर्यते नै श्रुधातु श्रूयते श्रूयते इकारः आमां श्रूयते अन्वश्रियते अन्वाश्रियत अन्वाश्रियत
लट्लकरे किम् अस्ति अनुश्रियते खलु
अनुश्रियते आई विल राइट इट डाउन मैम सर आई एम अनु अनुश्रियते अन्वश्रियते अन्वश्रियत अन्वश्रियत अहं लिखितवती तदा ज्ञातवती किं करणीय इति अस्माभिः भगवतः वर्त्म अन्वश्रियत
अन्वश्रियत इति समीचीनं तथैव
क्षम्यतां
न समीचीनमस्ति भगिनि अस्तु तत्र प्रायशः अत्रैव विरमाम तर्हि अतः तत्र समीचीनमस्ति तत्र वयम् अभ्यासं सम्यक् रीत्या कृतवन्तः अद्य अस्तु तत्र एकः
महोदय
नमस्कार भगिनि
एकः नमस्ते महोदय भवान् किमपि वदति वदतु महोदय तदनन्तरं
प्रश्नः अस्ति तत्र अग्रिमे वर्गे तत्र समयस्य परिवर्तनं भवति खलु अमेरिकादेशे अतः तत्र भारतदेशे षड्वादने एव भवति भवेत् वा अपि अमेरिकादेशे तथा
भवतः इच्छा महोदय
न सत्यं किन्तु तत्र वंशीसुधा भगिनी यदि सप्तवादने भवति चेत् क्लेशः अस्ति
न क्लेशः नास्ति तदेव मम उत्तमसमयः अस्ति महोदय
सप्तवादने अस्ति क्लेशः भवति वा
न भवति महोदय, मम कृते तु न भवति, यतोहि तत्र मम पुत्री पाठशालां गतवती, तदनन्तरं
हर्षिता भगिनी
किञ्चित् क्लेशः भवति परन्तु अहं अड्जस्ट् करोमि महोदय, मम कृते अनन्तरं टिफिन् अस्ति मम पत्युः, परन्तु अहं करोमि पूर्वमेव करोमि, किमपि क्लेशः न महोदय, सप्तवादने मिलामः।
समीचीनं वा भगिनि? अस्तु,
आमाम्, अग्रिमे बुधवासरे अहं न आगमिष्यामि, अहं प्रवासे भवामि, परन्तु अनन्तरं सप्तवादने अहम् आगमिष्यामि, किमपि क्लेशः नास्ति महोदय।
अस्तु भगिनि, धन्यवादः। अस्तु तर्हि,
अस्तु
अस्तु तर्हि, तत्र अमेरिकादेशे एषः एव समयः, किन्तु तत्र भारतदेशे समयः तत्र
सप्तवादने।
सप्तवादने,
अस्तु अस्तु अस्तु।
तर्हि तत्र 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 शान्तिमन्त्रं वदति वा भगिनि?
एकः प्रश्नः अस्ति तत् तस्मात् पूर्वं, तत्र आरभ्ये न आरम्यत आरम्यत इत्यस्मिन् आरभ नास्ति, आरम्यत आरम्ये इति अस्ति न, तत्र भवतः विवक्षा आसीत्, तत्र एषां प्रयोगः न भवति, परन्तु यदि वाक्यम् एतादृशः रचयामः, तत्र रामेण अहम् आरम्ये इति वदामि,
न भवति, यतोहि रम् इति धातुः अकर्मकः अस्ति, कर्मपदमेव न भवति।
अस्तु, परन्तु
अतः तत्र कर्मपदम् अहम् अथवा माम् तत्र अहं न भवति, रामेण केवलं तृतीया कर्तृपदं, तदनन्तरं क्रियापदं, क्रियापदं सर्वदा नियमः अस्ति खलु, अकर्मकः सर्वदा एकवचने प्रथमपुरुषे एकवचने इति एव खलु,
एकवचने अस्तु। तदनन्तरम् एकः अन्यः, समीचीनम्, तदनन्तरम् अन्यः प्रश्नः, तत्र भावे प्रयोगे क्रियापदं तु लुडन्तं भवति न, तत्र यदि सैनिकैः अयुध्यत इति वदामः, तत्र तु कर्म नास्ति न, युध्य तत्र लुडन्तं नपुंसकलिङ्गे एव भवति न, तत्र यदि भावे प्रयोगे अस्ति चेत् रामेण रामेण पठितं, हस्तेन खादितं, परन्तु तत्र
साक्षात् क्रियापदमस्ति, लुडन्तं नास्ति अत्र,
समीचीनम्,
अयुध्यत इति
अयुध्यत इति लङ् लकाररूपमस्ति, तत् भवति वा इति मम प्रश्नः, यतोहि भावे प्रयोगे कर्मणः कर्म न उक्तः, कर्तुः अपि न उक्तः, अतः तत्र तत्र जनार्दन हगडे महोदयस्य पुस्तके एतादृशः अस्ति, यदि भावे प्रयोगः अस्ति सर्वदा लुडन्तमेव भवति इति कुत्रापि मया पठितं महोदय, परन्तु एतादृश
यदि प्राप्नोति चेत् प्रेषयतु भगिनि, तत्र दृष्ट्वा वदामि।
एतादृशः वाक्यम् अभ्यासकृते अस्ति वा, नो चेत् अस्माकं भवति वा इति चिन्तयन्ती अस्मि महोदय,
न जानामि भगिनि, न जानामि,
एवं वा, अस्तु अस्तु, एकवारं दृष्ट्वा पुनः वदामि महोदय।
तत्र पुस्तके यदस्ति
प्रायः मम चिन्तनमपि दोषयुक्तः अस्ति, परन्तु न जानामि, परन्तु एकवारं समीचीनतया दृष्ट्वा वदामि,
पुस्तकं दृष्ट्वा अवगच्छामः तत्र सः किं वक्तुम् इच्छति इति।
अस्तु अस्तु अस्तु, शान्तिमन्त्रं वदामि महोदय,
वदतु भगिनि।
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ गुरुभ्यो नमः। धन्यवादः महोदय,
धन्यवादः। सुधा भगिनी, शोधा भगिनी, अहं किञ्चित् साहाय्यम् इच्छामि, सुधा भगिनी, शोभा भगिनी।